एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति ऊर्जा क्षेत्रस्य विकासाय सर्वकारेण उच्च प्राथमिकता प्रदत्ता अस्ति। संखुवासभा जनपदस्य अरूण तृतीय जलविद्युत आयोजनाया भूमिगत शरण्यः पारिनयनस्य कार्यक्रमं सम्बोधयन् पूर्वेद्युः प्रधानमन्त्री प्रचण्डः ऊर्जा क्षेत्रस्य प्रवर्धनाय सर्वकारेण आगामिनः आर्थिकवर्षस्य आयव्ययके नैज क्षेत्रस्य निवेशनस्य आकर्षणाय पर्याप्तं प्रावधानमस्तीति प्रावोचत्। आयोजनाया निर्माणस्य पश्चात् देशस्य विद्युत् व्यापाराय महत्वपूर्णं योगदानं भविष्यति इति विश्वासं व्यक्तवान् प्रधानमन्त्री प्रचण्डः। पूर्वस्मिन् मासे आत्मना काष्ठमण्डप नौविसे भूमिगत मार्गस्य बहुद्देशीय मरीन नद्या जलपथान्तरण परियोजनायाश्च पारे नयनस्य कार्यं विहितमिति स्मरन् राष्ट्रिय प्राथमिकताया आयोजनायाम् अनुगमनम् संसूचनञ्च प्रधानमन्त्री मन्त्री परिषद कार्यालयात् श्रव्य दृश्य प्रविधेर माध्यमेन गृह्यमाणमस्तीति असूचयत्। तदवसरे ऊर्जो जलस्रोत सेचन मन्त्री शक्तिबहादुर बस्नेत आयोजनात देशस्य ऊर्जा क्षेत्रस्य विकासाय नूतनायाम वर्धिष्यते इति चर्चयन् आगामिषु द्वादश वर्षेष् अष्टाविंशते सहस्राणि पञ्चशतञ्चेति मेगावाटमिताया विद्युत उत्पादनस्य लक्ष्यं सर्वकारेण गृहीतमस्तीति प्रत्यपादयत्। आयोजनात नवशत मेगावाटमिता विद्युत् उत्पादयिष्यते। अर्थमन्त्री वर्चमान पुन भाषते सर्वकारेण प्रस्तुते आय व्ययके अन्तरुत्पादन सम्बद्धा वृत्त्युपार्जन सम्बद्धाश्च कार्यक्रमाः प्राथमिकतया प्रस्तुताः वर्तन्ते। राष्ट्रियसभायाः ह्यस्तनोपवेशे आगामिनः आर्थिकवर्षस्य आय व्ययकमादृत्य विहिते विमर्शने सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री पुनः सार्वजनिकस्य ऋणस्य प्रयोगम् उत्पादनमूलक क्षेत्रेष् विधाय वृत्त्युपार्जनानि स्रक्ष्यन्ते इत्यवोचत्। अर्थमन्त्री पुनः जलवायु परिवर्तनस्य प्रभावस्य न्यूनीकरणस्य कार्याय उच्च प्राथमिकता प्रदत्ता अस्ति। राजस्व प्रणाल्यां सुधारं कृत्वा करस्य च परिधि वर्धितो वर्तते इति असूचयत्। राष्ट्रियसभायाः अपर उपवेश ज्येष्ठस्य अष्टाविंशे दिवसे दिवा सपादैकवादने अवस्था। प्रतिनिधिसभायाः उपवेशे आगामिनः आर्थिकवर्षस्य आयव्ययकमाधृत्य विमर्शनं सञ्चलदस्ति। गत रविवासरात् प्रारब्धे आयव्ययकस्य सैद्धान्तिक विमर्शने भागं गृह्णन्तः सांसदाः आयव्ययकं समय सान्दर्भिकमस्तीति चर्चयन्तः तस्य क्रियान्वयनाय बलं प्रदत्तवन्तः। सांसदैः क्रियान्वयनस्य निस्सिम्नः समस्यायाश्च निर्धारणात् आयव्ययकं सन्तुलितमस्तीति कथयद्भिः उद्देश्यस्य प्राथमिकतायाः आर्थिकस्य सुधारस्य च रणनीतिः निश्चित्य प्रस्तुतस्य आयव्ययकस्य क्रियान्वयनं सहजं भविष्यति इति कथितम्। एवमेव कतिपय सांसदाः आयव्ययक निर्माणस्य क्रमे सत्ता सहकारी दलैश्च विमर्शनेन विनैव आयव्ययकस्य निर्माणस्य कारणेन पूर्ववर्तिभिः सर्वकारैः प्रस्तुतानां समुचितानां कार्याणाम् अपि नैरन्तर्यं न सम्भूतमिति न्यश्चिन्वन्। एवमेव विपक्षि सांसदाः आयव्ययकेन देशस्य आर्थिक सुधाराय प्राथमिकतायाः क्षेत्राणां निश्चयनं कर्तुं न शक्तम्। वैदेशिकस्य आन्तरस्य च ऋणस्य आधिक्यात् आयव्ययकस्य क्रियान्वयने शंका च व्यक्तवन्तः। तत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशस्य प्रारम्भे सांसदाः जलविप्लवस्य भूस्खलनस्य जलमग्नतायाश्च संकटस्य न्यूनीकरणाय सामुदायिक विद्यालयानां गुणस्तरस्य सुधाराय सर्वकारीय कार्यालयानां सेवायाः प्रभावकारितायै च सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। प्रतिनिधिसभायाः अपर उपवेश अद्य एकादशवादने वसति। लुम्बिनी प्रदेश सर्वकारस्य आगामिनः आर्थिकवर्षस्य नीति कार्यक्रमाः बहुमतेन पारितीकृताः सन्ति। नीति कार्यक्रमाणां पारितीकरणेन सहैव सर्वकाराय आगामिनः आषाढ मासस्य प्रथमे दिवसे आयव्ययकं प्रस्तुतेः मार्गः प्रशस्तीभूतो वर्तते। प्रदेशसभायाः ह्यस्तनोपवेशे सभामुखेन तुलाराम घर्तीमगर इत्यनेन निर्णयार्थं प्रस्तुताः नीति कार्यक्रमाः बहुमतेन पारिताः सन्ति। तत्पूर्वं प्रदेशसभायाः उपवेशे उत्थापितान् प्रश्नान् मुख्यमन्त्री जोगबहादुर महरा उत्तरितवान् आसीत्। अस्माकं भूमिः अस्माकं भविष्यम् इति राष्ट्रिय समाघोषेण सह अद्य विश्ववातावरण दिवसः समायोज्यमानो वर्तते। एतदवसरे राष्ट्रपतिना रामचन्द्र पौडेलेन प्रदत्ते शुभकामना सन्देशे देशे पूर्वाधाराणां विकासेन सबल विकासस्य अवधारणाम् आत्मसात्कृत्य वातावरणस्य संरक्षणस्य संयुक्त लक्ष्ये अग्रे वर्धितुं प्रेरणा मिलतु इति कामना व्यक्ता वर्तते। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन प्रदत्ते शुभकामना सन्देशे अनेन दिवसेन प्रकृतेः वातावरणस्य च संरक्षणस्य संयुक्त लक्ष्ये अग्रे वर्धितुं प्रेरणा मिलतु इति कामना व्यक्ता अस्ति। संयुक्त राष्ट्रसंघस्य आह्वानेन प्रतिवर्ष जून मासस्य पञ्चमः दिवसः विश्व वातावरण दिवसत्वेन समायोज्यमानो वर्तते। झापा जनपदस्य प्रायः पालिका हाजल विप्लवस्य उच्च संकटे सन्ति, ततः विपद व्यवस्थापनस्य पूर्व कार्याणि तीव्रगत्या विधीयमानानि सन्तीति झापा जनपद विपद व्यवस्थापन समित्या ज्ञापितं वर्तते। समित्या आपत्कालिकाश्रयस्थलस्य निर्धारणं, सहयोग वितरणस्य मापदण्डस्य निश्चयनं, संकटग्रस्तानां गृहपरिवाराणां तथ्याङ्कानां संकलनं, पालिकासु प्रतिनिधिनां निर्धारणं चेति कार्याणि विधीयमानानि सन्तीति झापा जनपदस्य सहायक प्रमुखाधिकारी विश्वराज नेपालः ज्ञापयति। जनपदस्य पञ्चदशसु पालिकासु षड् पालिकाः जलविप्लवस्य उच्च संकटे सन्ति। मदन भण्डारी राजमार्गे उदयपुर जनपदस्य त्रियुगा नगरपालिकायाः प्रथम ओडा क्षेत्रस्य फुलजोर स्थाने ट्रिपर यानस्य प्रहारेण द्वौ जनौ मृतौ। गाईघाट स्थानात् पूर्वं गच्छत् मोटरसाइकल यानं विपरीत दिशातः आगच्छता ट्रिपर यानेन प्रहृतं सत् दुरापन्नायां दुर्घटनायां द्वौ जनौ घटनास्थले एव मृतौ इति प्रहरिणा ज्ञापितं वर्तते। मृतकयोः सुनसरी जनपदस्य रामधुनी नगरपालिकायाः रविर श्रेष्ठः, त्रियुगा नगरपालिकायाः तृतीय ओडा क्षेत्रस्य हीरा राय च स्त इति प्रहरिणा ज्ञापितमस्ति। अन्तर्राष्ट्रिय क्रिकेट क्रीडा परिषद टी विंशतेः पुरूष विश्वकप क्रिकेट क्रीडा प्रतियोगितायाः अन्तर्गतायां प्रथम स्पर्धायां नेदरल्याण्ड देशात् नेपालः पराजितो वर्तते। नेपालेन नेदरल्याण्ड देशस्य समक्षं सप्तोत्तरशत धावनाङ्कानां लक्ष्यं प्रस्तुतमासीत्। लक्ष्यमेतत् नेदरल्याण्ड देशेन दशमलव चतुरुत्तराष्टदशसु ओभराङ्केषु चतुरः क्रीडकान् हापित्वा अधिगतम् आसीत्।